अष्टाध्यायी सूत्रपाठ चतुर्थाध्याये प्रथमः पादः ज्ञा प्रातिपदिका सौ जसा मोक्षाष्टाभ्याम वेद्येभ्याम व्यासदसिभ्याम व्यासदसो साम्योऽस्तु स्त्रियाम् अजात्यतष्टा ऋण्येभ्यो गी उगितश्च वनोरच पादोऽन्यतरस्याम् तावृचि न षट्स्वस्त्रादिभ्यः मनः अनो बहुव्रीहेः दाभुभाभ्यामन्यतरस्याम् अनुपसर्जनात् टिड्डाण्णै द्वयसज्जग्नै मात्रस्तय फक्ठै कैकोरपः ययश्च प्राचांष्फस्तद्धितः सर्वत्र लोहितादिकतन्तेभ्यः कौरव्या माण्डूकाभ्याम् च वयसि प्रथमे विगोः अपरिमाणविस्ताच्छितकम्बल्येभ्यो न तद्धितलुकि काण्डान्तात् क्षेत्रे पुरुषात् प्रमाणेऽन्यतरस्याम् बहुव्रीहे रुदतो ङीष् सङ्ख्याव्ययादेर्ङीष् दामहायनान्ताच्च अन उपधालोऽपिनोऽन्यतरस्याम् नित्यम् संज्ञा छन्दसोः केवलमामक भागधेय पापापर समानार्यकृत सुमङ्गल भेषजाच्च रात्रेश्चाजसौ अन्तर्वत् पतिवतोर्नुक् पत्योर्नो यज्ञ संयोगे विभाषा सपूर्वस्य नित्यम् सपत्न्यादिषु पूतक्रतोरै च वृषाकप्यग्नि कुसित कुसीदानामुदात्तः मनोरौ वा वर्णादनुदात्तात्तोपधात्तो नः अन्यतो ङीष् षिद्गौरादिभ्यश्च जानपादकोण्डकोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्यमत्रावपना कृत्रिमाश्राणास्थौल्य वर्णानाच्छादनयो विकारमैथुनेच्छा केशवेशेषु शोणात् प्राचाम् वतो गुणवचनात् बह्वादिभ्यश्च नित्यम् छन्दसि भुवश्च पुंयोगादाख्यायाम् इन्द्रवरुण भव शर्वरुद्रमृड हिमारण्ययवयवनमातुलाचार्याणामानो क्रीतात्करणपूर्वात् तादल्पाख्यायाम् बहुव्रीहेश्चान्तोदात्तात् अस्वाङ्गपूर्वपदाद्वा स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् नासिकोदरोष्टजङ्गादन्तकर्ण श्रृङ्गाच्च न क्रोडादि बहुवचः सहनै विद्यमान पूर्वाच्च नखमुखात् संज्ञायाम् दीर्घजिह्वी च छन्दसि दिक्पूर्वपदान्नीप् वाहः वाहः
वाहः वाहः वाहः वाहः
वाहः सख्यशिश्वीति भाषायाम् सख्यशिश्वीति भाषायाम्
वाहः सख्यशिश्वीति भाषायाम् सख्यशिश्वीति भाषायाम् वाहः सख्यशिश्वीति भाषायाम् सख्यशिश्वीति भाषायाम्
वाहः सख्यशिश्वीति भाषायाम् जातेरस्त्रीविषयादयोपधात्
वाहः
वाहः सख्यशिश्वीति भाषायाम् जातेरस्त्री विषयादयोपधात् पाक कर्ण पर्ण पुष्प फल मूल वालोत्तर पदाच्च पाक कर्ण पर्ण पुष्प फल मूल वालोत्तर पदाच्च वाहः सख्यशिश्वीति भाषायाम् जातेरस्त्री विषयादयोपधात् पाक कर्ण पर्ण पुष्प फल मूल वालोत्तर पदाच्च इतो मनुष्य जातेः
इतो मनुष्य जाते इतो मनुष्य
विवाहः सख्य शिश्वीति भाषायाम् जाते रस्त्री विषयादयोपधात् पाक कर्ण पर्ण पुष्प फल मूल वालोत्तर पदाच इतो मनुष्य जाते ऊंगुतः ऊंगुतः वाहः सख्य शिश्वीति भाषायाम् जाते रस्त्री विषयादयोपधात् पाक कर्ण पर्ण पुष्प फल मूल वालोत्तर पदाच्च इतो मनुष्य जातेः ऊंगुतः बाह्वन्तात् संज्ञायाम् बाह्वन्तात् संज्ञायाम् वाहः सख्य शिश्वीति भाषायाम् जाते रस्त्री विषयादयोपधात् पाक कर्ण पर्ण पुष्प फल मूल वालोत्तर पदाच्च इतो मनुष्य जातेः ऊंगुतः बाह्वन्तात् संज्ञायाम् पंगोश्च पंगोश्च सख्य शिश्वीति भाषायाम् जातेरस्त्री विषयादयोपधात् पाक कर्ण पर्ण पुष्प फल मूल वालोत्तर पदाच्च इतो मनुष्य जातेः ऊंगुतः बाह्वन्तात् संज्ञायाम् पंगोश्च ऊरुत्तर पदादौपम्ये ऊरुत्तर पदादौपम्ये सख्य शिश्वीति भाषायाम् जातेरस्त्री विषयादयोपधात् पाक कर्ण पर्ण पुष्प फल मूल वालोत्तर पदाच्च इतो मनुष्य जातेः ऊंगुतः बाह्वन्तात् संज्ञायाम् पंगोश्च ऊरुत्तर पदादौपम्ये संहित क्षफल क्षणमावामादेश्च संहित क्षफल क्षणमावामादेश्च
वाह सख्य शिश्वीति भाषायां जाते अस्ति शतम्।